एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री बालेन्द्र शाह निगदति सर्वकारेण देशस्य आर्थिक विकासाय समृद्धये च निवेशापणाय विशेष प्राथमिकता प्रदत्तास्ति निवेशापणस्य प्रतिनिधिभिस्सह प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्यः सम्भूते विमर्शने प्रधानमन्त्री शाह निवेशापणस्य माध्यमेन उद्यमशीलतायाः विकासः वृत्त्युपार्जनानां सर्जनञ्च सर्वकारस्य मुख्य प्राथमिकतायां स्थ इति अवोचत् व्यवसायिनः उच्च मनोबलेन कार्यं कर्तुम् अनुरुन्धानः प्रधानमन्त्री शाह नेपालस्य निवेशापणं व्यावसायिकं मर्यादितं च विधातुं बलं प्रादात् प्रधानमन्त्री शाह समीचीनतया कार्यं कुर्वाण जनाः सदैव प्रोत्साहयिष्यन्ते परं त्रुटिकर्तारः सोढव्या न भविष्यन्ति इति प्रावोचत् विमर्शनस्य क्रमे निवेशापण सम्बद्ध संस्थानां प्रतिनिधिभिः आपणानां सबल विकासाय विधिगतस्य संस्थागतस्य प्रणालीगतस्य च सुधारस्य आवश्यकता अस्ति इति परामृष्टं दत्तम् जलवायु विज्ञान विभागेन श्व बुधवासरात् वृष्टि क्रमशः न्यूना भविष्यति इति ज्ञापितं वर्तते विभागस्य वरिष्ठ जलवायुविद् मीनकुमार अर्याल अद्यापि देशस्य विभिन्नेष् स्थानेष् वृष्टे सम्भावना सत्यपि श्वस्तन दिवसात् वृष्टि न्यूना भविष्यति इति असूचयत् सर्वकारस्य सचिवानाम् उपवेशेन शासकीय सुधारस्य शतसंख्यातानां कार्यसूचीनाम् अन्तर्गतं सुशासन प्रवर्धनस्य सेवा प्रवाहे सुधारस्य निर्णय प्रक्रियायाः सरलीकरणस्य च क्षेत्रेष् सम्पादितेभ्य समीचीनाभ्यासेभ्य नैरन्तर्यं प्रदातुं निर्णीतमस्ति मुख्य सचिवस्य गोविन्द बहादुर कार्किण अध्यक्षतायां ह्य उपविष्टेन सचिवानाम् उपवेशेन कार्यसूच्याम् उल्लेखितानां विषयाणां क्रियान्वयनाय संघटितात् कार्यदलात् समितितः प्राप्तान् परामर्शान् क्रियान्वेतुं तस्य प्रभावस्य मूल्यांकनं विधातुं च आन्तर संयन्त्रं निर्माय शासकीय सुधारस्य कार्याय नैरन्तर्यं प्रदातुं निर्णीतमस्ति उपवेशेन सेवा प्रवाहे सहजीकरणं विकेन्द्रीकरणं च कर्तुं कर्मचारिणां क्षमतायाः विकासं कर्तुं विपदः संरक्षणाय पूर्वकार्यं प्रतिकरण कार्यं च कर्तुं आर्थिकानुशासने व्यये च मितव्ययिताम् अवलम्बितुं च निर्णीतमस्ति सर्वकारेण सार्वजनिकावकाशान् पुनरवलोकयितुं गृहमन्त्रालयस्य सहसचिवस्य संयोजकत्वे चतुस्सदस्यात्मकं कार्यदलं संघटयितुं निर्णीतं वर्तते मुख्य सचिवस्य गोविन्द बहादुर कार्किण अध्यक्षतायां ह्य उपविष्टेन सचिवानाम् उपवेशेन प्रतिसप्ताहं शनिवासरे रविवासरे च दिनद्वयम् अवकाश प्रदानस्य पश्चात् अन्येषां सार्वजनिकावकाशानां पुनरवलोकनाय कार्यदलमिदं संघटयितुं निर्णीतम् वर्तते कार्यदलेऽस्मिन् प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयस्य अर्थ मन्त्रालयस्य च प्रतिनिधयः भविष्यन्ति कार्यदलेन पञ्चदश दिवसानाम् अभ्यन्तरे गृह मन्त्रालये प्रतिवेदनं प्रस्तोष्यते इति च मुख्य सचिवेन कार्किणा हस्ताक्षरितायां विज्ञप्तौ उल्लिखितं वर्तते उपवेशेन अति प्राचीनानाम् असान्दर्भिकानां कार्य सम्पादने प्रभावसर्जकानां च विधीनां निरसनाय सम्बद्ध मन्त्रालयेन प्रक्रियायाः अग्रेसारणाय च निर्णीतं वर्तते स्वास्थ्य खाद्य स्वच्छता मन्त्रालयेन वन्य छत्राकं न भोक्तुं सर्वे नागरिकाः अनुरुद्धा वर्तन्ते वर्षायामस्य प्रारभणानन्तरं वन्य छत्राकाणां विषाक्त भवनस्य सम्भावना भवतीति हेतुः तद्भोजनेन जनाः गभीरेण रुग्णाः सम्भवन्ति एतेन च मृत्युरपि सम्भविष्यतीत्यतः मन्त्रालयेन वन्य छत्राकं न भोक्तुं सर्वे अनुरुद्धा वर्तन्ते मन्त्रालयेन सार्वजनिक कृते सञ्चेतनामूलक देशे वर्षायामे वन्य छत्राकः पर्याप्त रूपेण प्राप्यन्ते परं सर्वविध छत्राकः भोक्तुं योग्यो न भवतीति सर्वे सावधानी कृताः वर्तन्ते वाणिज्यापूर्ति मन्त्रालयेन उपभोक्तृ संरक्षण विभागस्य माध्यमेन न्यून गुणस्तराणाम् अखाद्य मिश्रितानां दैनिकानाम् अत्यावश्यक खाद्यवस्तूनां च विक्रयणं न कर्तुं सर्वे पक्षा अनुरुद्धा वर्तन्ते विभागेन ह्य सूचनां प्रकाश्य चौर्यकारेण आनीतानां न्यून गुणस्तरस्य दैनिकोपभोग्य वस्तूनां ऑनलाइन प्रविधेर्माध्यमेन विक्रयणं वितरणं च न कर्तुं सर्वे सूचिताः वर्तन्ते विधि न्याय संसदीय विषय मन्त्रालयेन विधि सुधार निर्माण वर्षम च सफलीकर्तुम् प्रवर्तनायै सम्बद्धा सर्वै पक्षाः अनुरुद्धा वर्तन्ते। मन्त्रालयेन वर्तमानार्थिक वर्षम् विधि सुधारस्य निर्माणस्य च वर्षत्वेन उद्घुष्टमस्ति। वर्षमिदं सफलीकर्तुम् संघीय संसद आवश्यक विधायकी कार्यस्य प्रापणस्य उद्देश्येन 67-उत्तरैकशत विधेयकानि आधृत्य ह्यस्तन दिवसात् विमर्शनं प्रारब्धमस्ति इति विधि न्याय संसदीय विषय मन्त्रिणः सोविता गौतम इत्यस्य सचिवालयेन ज्ञापितं वर्तते। बाजुरा जनपदस्य हिमाली ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य किउडी स्थाने जीपयानस्य दुर्घटनायां चालकेन सह 9 जनाः आहताः वर्तन्ते। कुवाडी किउडी मार्गखण्डे जीपयानम् अनियन्त्रितं सत् मार्गात् 10 मीटरमितम् अध पतितम् आसीत्। बेलायत देशे एण्डी बर्नहम प्रधानमन्त्री पदे नियुक्तोऽस्ति। गत शुक्रवासरे लेबर पार्टी इति दलस्य नेतृत्वेन प्रसितः 55-तमवर्षीय वर्णम स्वदलस्य सर कियर स्टामर इत्यमुम् विस्थापितं विधाय सोमवासरे बेलायत देशस्य 69तम प्रधानमन्त्री निर्वाचितो वर्तते। बकिंघम प्रासादेन नियुक्तेः पुष्टिं विधाय राज्ञा चार्ल्स इत्यनेन वर्णम इत्यमुम् सर्वकारं संघटयितुम् आह्वानं विहितमस्ति इति ज्ञापितं वर्तते। इति समाचारः।